नमस्काराः। अद्य सिद्धान्तकौमुद्याः अनन्तपुल्लिङ्गप्रकरणे षष्ठः पाठः, आगस्ट् मासस्य नवमः दिनाङ्कः। ऐ हेव् नाट् चेञ्ज् मै टैटल् स्लैड्, सोरि। येनाक्षरसमां नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। मकारान्ताः पुल्लिङ्गाः अधीयन्ते। तत्र प्रशां शब्दः आदौ अधीतः, शमधातोः निष्पन्नः। तस्य पदान्ते मोनोधातोः इत्यनेन धातोः मकारस्य स्थाने नकारादेशो भवति। तेन प्रशामौ प्रशामः, एवमेव प्रशामा प्रशान्भ्यां प्रशान्भिः इत्यत्र यत्र पदसंज्ञा विद्यते तत्र मकारादेशो भवति। ततः किं शब्दः सर्वनामसंज्ञकः, तस्य किमः कः इत्यनेन क इति आदेशो भवति। आदेशे कृते अदन्तत्वात् सर्वशब्दवद् रूपाण्यपि भवन्ति। इदानीं मकारान्तः पुल्लिङ्गः इदं शब्दः अध्येतव्यः, अयमपि सर्वनामशब्दः। सर्वादीनि सर्वनामानि इत्यनेन सर्वनामसंज्ञा विद्यते। सर्वविश्व इत्यादिपाठे यद् तद् यद् एतद् इदम् इत्यत्र अस्ति इदं शब्दः। तेन सर्वादि सर्वनामसंज्ञाप्रयुक्तानि कार्याणि भवन्ति। एवमेव त्यदाद्यन्तर्गणः अस्ति, त्यदादीनाम् अष्टानां शब्दानां यद् तद् यद् एतद् इदम् अदस् एकद्वि इत्येतेषां शब्दानाम् एकः अन्तर्गणः विद्यते सर्वादिगणे। इट् इस् अ सब् क्लास् अ सब्सेट् आफ् द सर्वादिगण विच् हेस् स्पेसिफिक् कार्यास् मेण्डेटेड् फोर् इट्। सो इदं शब्दस्य त्यदादिगणस्यापि अवयवत्वात् तानि कार्याण्यपि भवन्ति, यानि त्यदादीनां कार्याणि विहितानि विशिष्य तान्यपि कार्याणि भवन्ति। इदम् इत्यस्मात् सुप्रत्यये कृते वस्तुतः त्यदादीनामः इत्यनेन अत्वं प्राप्नोति। आल् त्यदादीस् सर्वासु विभक्तिषु अकारः अन्तादेशः प्राप्नोति, किन्तु इदमो मह इति सूत्रम्। इदमः मह, इदमः इति षष्ठी, मह इति प्रथम। तदोस्तस्सावरन्त्ययोः इति सूत्रात् सौ इति अनुवर्तते। इदमः मस्य मह स्यात् सौ परे, सुप्रत्यये परे मकारस्य स्थाने मकार एव भवति। द म इस् रिप्लेस्ड् बै म। वै सच् अ थिङ्ग्? वै शुड् यु रिप्लेस् मकार वित् मकार? त्यदाद्यत्व अपवादः, त्यदादीनामः इति यः अकारः विहितः तं बाधितुं, टु ओवर् रूल् द अकारादेश वि रिप्लेसिङ्ग् म वित् म, विच् मीन्स् त्यदादीनामः विल् नाट् हेपन्। इदं स, पुनः इदमो मह इति मकारस्य मकारः करणीयः। दिस् स्टेप् इस् मेण्डेटरि बिकास् अदर्वैस् त्यदादीनामः वुड् ओपरेट् टु कन्वर्ट् इट् टु अकार। टु प्रिवेण्ट् इट् युर् डूयिङ्ग् वन् स्टेप् विच् टेल्स् त्यदादीनामः नाट् टु अप्लै। मकार बीङ्ग् रिप्लेस्ड् बै मकार मीन्स् अकार विल् नाट् अप्लै, बिकास् इफ् वि डू त्यदादीनामः आफ्टर् डूयिङ्ग् इदमो मह, there is no point in having done idamomaha since there was originally a makara also. Idam su ido ai pumsi iti sutram paratrayam idaha ai pumsi idamomaha ityataha idamaha iti anuvartate yasau ityataha sau iti anuvartate idamaha idaha ai syat सौ पुंसि, पुंसि पुल्लिङ्गे सौ सुप्रत्यये परे। इदमः इदः, इदं शब्दस्य यः इद् इति भागः, द पार्ट् काल्ड् इद्, तस्य स्थाने ऐ इति आदेशो भवति इत्यर्थः। इदं स् इत्यस्ति, अयं पुल्लिङ्गः सुप्रत्ययः, तस्मात् इद् इत्यस्य स्थाने ऐ इत्यादेशे अयं स् इति जातम्। इदानीं हल्ज्ञांशादीर्घः सुतस्य प्रक्तं हल् इत्यनेन सुलोपे कृते अयम् इति रूपं प्रथमैकवचने इदं शब्दस्य पुल्लिङ्गस्य अयम् इति रूपम् इदम् औ इत्यस्ति सो इदमो मह इति सुप्रत्यये एव विहितः सो द मकार बीङ्ग् रिप्लेस् बै मकार इस् ओन्ली इन् केस् आफ् सुप्रत्ययः सो इन् आल् अदर् विभक्तीस् अन्यासु सर्वासु विभक्तिषु अपि तदादीनामः इत्यनेन अक्तुं भवति तेन तदादित्वं पररूपं च इत्युच्यते इद अ औ अकारादेशः अलोन्त्यस्य इत्यनेन अन्त्यस्य मकारस्य स्थाने आदेशः इद अ औ इत्यस्ति अतो गुणे इत्यनेन पररूपम् अपदान्तात् अकारात् गुणे परतः सो अयम् इद इत्यत्र यः अकारः सः अपदान्तः अकारः अयमकारः गुणसम्यकः अपदान्तानकारात् गुणे परे पररूपम् एकादेशः स्यात् इत्यनेन पररूपे इद औ इदानीं पुनः नूतनं सूत्रं दश्च दह च अष्टनामविभक्तौ इत्यतः विभक्तौ इति वर्तते इदमो मह सो इदमः इत्यनुवर्तते इदमः दस्य दः इति षष्ठी विभक्तिः इदं शब्दस्य यः दकारः तस्य स्थाने मकारादेशः भवति विभक्तौ प्रत्यये परतः विभक्तिप्रत्यये परतः दकारस्य स्थाने मकारादेशो भवति इद औ इत्यस्ति दकारस्य स्थाने मकारे कृते इम औ वृद्धिरेचि इत्यनेन वृद्धौ इमौ अयम् इमौ एवमेव इदं जस् सर्वत्र तेरादीनामः अतो गुणे सो इन् आल् विभक्तीस् वि हाव् दीस् सो यु विल् हाव् इद रिमेनिङ्ग् सो इद अस् इत्युच्यते जस् शी सर्वनामसंज्ञा अपि अस्ति सर्वादीनि सर्वनामानि सो अदन्तात् सर्वनाम्नः परस्य जस शी स्यात् इत्यनेन जस स्थाने शी आदेशः इद इ दश्च इत्यनेन दकारस्य स्थाने मकारादेशः इम इ आदुणः इत्यनेन गुणे इमे अयम् इमौ इमे तदादेः सम्बोधनं नास्ति इति उत्सर्गः सो इट्स् अ जनरल् थिङ्ग् दट् तदादीनां नाट् जस्ट् तदादीस् स्टार्टिङ्ग् फ्रम् त्यद् आल् सर्वनामस् विच् आर् लेफ्ट् दट् इस् त्यद त्यद् तद् यद् एतत् इदम् अदस् एकद्वि युष्मद् अस्मद् भवतु किं फार् आल् दीस् ट्वेल्व् सर्वनामस् सम्बोधनप्रथमविभक्ति इस् नाट् इन् रूढि सम्बोधनस्य प्रयोगः नास्ति उत्सर्गतया सामान्यतया नास्ति इत्यतः सम्बोधनविभक्तिः विभक्तौ रूपाणि न प्रदर्श्यन्ते द्वितीया विभक्तौ अम् प्रत्ययः अत्वे पररूपे इद अम् पुनः दश्च इत्यनेन दकारस्य मकारे इम अम् अमि पूर्वः इत्यनेन पूर्वरूपे इमम् इमं द्विवचने इमौ यथा प्रथमायां कृतं तथैव इदम् इत्यस्मात् शस् प्रत्ययः केन निमडि टेल् मी द प्रक्रिया यूसिङ्ग् सूत्रास् विच् वि डिड् जस्ट् नौ नथिङ्ग् न्यू सा एव प्रक्रिया Just try, I mean what I was telling so far. Mr. Lakshmi. शस यदादीनामः इत्यनेन अस्त्वे ओके अकः प्रथमा द्वितीययोः अचि पूर्वसवर्णदीर्घः एकादेशः स्यात् पूर्वसवर्ण इमास् इति तस्मात् छसो नः पुंसि इत्यनेन नकारे इमान् इति रूपम् इमम् इमौ इमान् इति द्वितीयाविभक्तौ रूपाणि अतः तृतीया इदं शब्दात् टा प्रत्यये कृते अनाप्यकः इति सूत्रं परत्रयम् अन् आपि अकः आपि इति सप्तमी अकः इति षष्ठी अन् इति प्रथमा अष्टमाविभक्तौ इत्यतः विभक्तौ इति अनुवर्तते इदमो मह इत्यस्मात् इदमः इति इदोय पुंसि इत्यतः इदः इति च अनुवर्तते अर्थः अककारस्य इदमः अकः इति इदमः विशेषणं सो अकः नाम न विद्यते कः ककारः यस्य सः तादृशस्य इदमः सो दिस् अककारस्य इस् टु प्रिवेण्ट् अप्लिकेशन् आफ़् दिस् सूत्र वेन् द वर्ड् गेट्स् अकच् ऐ वास् टाकिङ्ग् यस्टर्डे अव्यय सर्वनाम्नाम् अकच् प्राप्तेः सर्वेषां सर्वनामशब्दानाम् अकच् प्रत्ययः क्रियते स्वार्थे सो अककारस्य नाम यत्र ककारः न श्रूयते तादृशस्य इदमः इदः इदमः यः इद् इति भागः तस्य अन् इत्यादेशो भवति आपि विभक्तौ सो विसा इदोय् पुंसि इत्यत्र इद् इत्यस्य स्थाने अय्यादेशः कृतः इदानीं तु अनादेशः क्रियते आपि विभक्तौ आप् नाम कः चेत् आप् इति टा इत्यारभ्य सुपः पकारेण प्रत्याहारः वित् टा विच् इस् आ टाभ्यां भ्यस् ङेभ्यां भ्यस् इत्यतः अन्ते सुप् इत्यत्र यः पकारः तेन सह प्रत्याहारे आप् इति अर्थात् तृतीयादौ विभक्तौ इत्यर्थः सो तस्यां विभक्तौ परतः इदः स्थाने अनादेशो भवति सो इदम् आ इत्यस्ति तदाद्यत्वे पररूपे इद आ अस्ति इदानीम् इद् इत्यस्य स्थाने अन् इत्यादेशे अन आ इति जातम् अन इति अकारान्तम् अकारान्तत्वात् टा नसि नसाम् इनात्स्याः इत्यनेन इनादेशः टा प्रत्ययस्य स्थाने इनादेशः अन इन इति जातम् अदुनः इत्यनेन गुणे अनेन इति रूपम् अनेन इट्स् एक्चुलि डिफिकल्ट् टु ट्रेस् इट् बेक् टु इदं शब्द बिकास् आल् लेटर्स् आफ़् इदं हेव् बीन् रिप्लेस्ड् सो यु हेव् दिस् इकार इस् नाट् हर्ड् दकार इस् नाट् हर्ड् मकार इस् आल्सो नाट् हर्ड् सो दट् इस् द केस् इन् आल् फर्दर् विभक्ति अनेन अभ्यामेभिः अस् यु गो आन् सो इट् इस् रादर् डिफिकल्ट् बिकास् द word has undergone, Pratipadika has undergone a complete modification, but still prayogaha, prayogavashat bhavati. So anena, tritiyeka vachane anena iti rupam. Bhyam pratyaye, so we have idam bhyam, ida bhyam iti bhavati. Tatravi anapyakaha, anapyakaha says simply any vibhakti starting from up. Okay. Kintu tasya apavadatvena hali lopaha. इति सूत्रम् अलि लोपः इति पदद्वयं पुनः सर्वमपि विभक्तौ इति अनुवर्तते इदमः इदः अकः सर्वाण्यपि पदानि अनुवर्तन्ते. हलिलोपः अनाप्यकः, आप्य विभक्तौ अनादेशः भवति, हलि हलादौ विभक्तौ तु तस्य इदः लोपो भवति इत्यर्थः. अककारस्य इदमः इदः लोपस्यात् आपि हलादौ. सो वेन् फालोड् बै एन् आप् दट् इस् एनी विभक्ति स्टार्टिङ्ग् फ्रम् तृतीया विच् इस् अ हलादि विभक्ति बिगिनिङ्ग् वित् हल् इद् पार्ट् आफ़् इट् गेट्स् डिलीटेड् मीन्स् वाट् दिस् इस् सो फैनली वाट् हेपन्स् इफ् इट्स् एन् अजादि विभक्ति यु गेट् अनादेश इफ् इट्स् अ हलादि विभक्ति यु गेट् लोप इद् गेट्स् डिलीटेड् Now, there is a question. Lopa is always considered an aladesha. Right? Whenever we say lopa, we apply alontyasya and we say antyasya lopaha. So, atra kim bhavati? Idu ityasya, antyasya lopaha va. Antyasya nama dakarasya lopova, purnasya idaha lopova. Iti prashna. Should we delete only the ending of idu or should we delete the entire idu? This is a question. So, manarthake alontya vidhi anabhyasa vikare. इति वार्तिकम्. न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे. अनर्थके अलोन्त्यविधिः न इति वार्तिकस्य अर्थः. सो अनर्थके दट् इस् वेन् द डिलीशन् आर् वेन् एवर् एनी आदेश इस् बीङ्ग् डन् फार् अ मीनिङ्ग्लेस् पार्ट् मीन्स् वेन् यु आर् डूयिङ्ग् से लोपः फार् से वेर् एल्स् डिड् वि सी लोप or say diva out, you are doing an aukaradesha for divu. Okay, so divu is an arthavat part, it is a meaningful part. So in such a cases when there is an aladesha, we can apply alontyasya. But anarthake, when idu is a part of idam, only idam has some meaning and idu is anarthaka. So when there is some karya which is mandated for an anarthaka part of something, alontyavidhihi na, alontyasya will not apply. That is, the whole thing, whatever has been indicated in the sutra, will get the karya. Okay? But this rule does not apply in case of abhyasa vikara. When you are doing some case karya for abhyasa, abhyasa is something which we see in litlakara. Or dvitve krute, purva abhyasa hai tvichate. Yantra dvitvam bhavati, tatra purvaha bhagaha, abhyasa samyam prapnoti. Abhyasasya karya kartavye, अनर्थकस्यापि अलोन्त्यविधिः भवति. तद्विहाय अन्यत्र अनर्थकस्य अलोन्त्यविधिः न भवति इति वार्तिकस्य अर्थः. अभ्यासविकारं विहाय अन्यत्र अनर्थकस्य शब्दस्वरूपस्य विधौ कर्तव्ये. अलोन्त्यस्य इति परिभाषा न प्रवर्तते, अर्थात् कृत्स्नस्यैव भवति. अत्रापि हलिलोपः इत्यनेन इदं शब्दस्य एकदेशः, एकदेशः नाम भागः, पार्ट् आफ् इट्, अनर्थकस्य इदः लोपो विहितः. द लोप हेज़् बीन् मेण्डेटेड् फार् इद् विच् इस् एन् अनर्थका पार्ट् आफ् द एण्टैर् इदम्. सः लोपः कृत्स्नस्य इदः भवेत् उत अन्त्यस्य दकारमात्रस्य इति प्रश्नः. द क्वश्चन् इस् शुड् वि डिलीट् द एण्टैर् इद् आर् ओन्ली द दकार पार्ट् आफ् इट् यूसिङ्ग् अलोन्त्यस्य. तदा अनेन वार्तिकेन कृत्स्नस्य इदः लोपो भवति, अलोन्त्यस्य इति परिभाषा अत्र न प्रवर्तते. तेन पूर्णस्य इद् इति उभयोः वर्णयोः लोपो भवति इत्यर्थः. किं जातम्? इदं भ्याम् इत्यस्ति, तदानीनामः इत्यनेन अत्वे इद अभ्यां, पररूपे इद भ्यां. हलिलोपः इदानीं हलादेः विभक्तिः, भ्यां भकारः हल्, तेन इद् इत्यस्य लोपे अभ्याम् इति जातम्. इदानीं किं करणीयम् इति प्रश्नः. रामभ्याम् इत्युच्यते, किं कृतम्? रामभ्याम् इत्युच्यते, किं कृतं? का प्रक्रिया? सूजी अपिच इत्यनेन दीर्घः कृतः अदोङ्गस्य अदन्तस्य अङ्गस्य दीर्घः स्यात् ययादौ सुपिपरे इति सुपिच इति दीर्घः अदन्तस्य अङ्गस्य इति उच्यते अर्थात् अकारान्तं यदङ्गं तस्य दीर्घः स्यात् सुपिपरे सो इदानीं केवलस्य अकारस्य दीर्घः भवति वा दिस् इस् नाट् अकारान्त राम इस् अकारान्त यतोहि अकारः अन्ते विद्यते अकारान्तं नाम किम् अकारः अन्ते यस्य सः अकारान्तः अत्र तु केवलः अकारः श्रूयते अयम् अकारान्तो वा सुपिच इति दीर्घः भवति वा केन् वि अप्लै सुपिच हियर् बिकास् दिस् इस् नाट् अकारान्त दिस् इस् जस्ट् अकार केवलस्य अकारस्य सुपिच इति दीर्घो भवति वा इति प्रश्नः अद्यन्तवदेकस्मिन् इति परिभाषासूत्रम् आद्यन्तवद् एकस्मिन् इति छेदः एकस्मिन् क्रियमाणं कार्यम् आदाविव अन्त इव च स्यात् सो दिस् इस् वन् परिभाषा विच् वि यूस् एव्रिवेर् वि आर् टाकिङ्ग् आफ् दिस् फ्यू डेस् अगो वित् व्यपदेशिवद्भाव बोत् आफ् देम् आर् द सेम् एकस्मिन् क्रियमाणं कार्यम् इफ् देर् इस् अ सिङ्गल् एण्टिटि इस् अ सिङ्गल् वर्ण आर् अ सिङ्गल् संथिङ्ग् विच् गेट्स् द कार्य आदाविव अन्ते इव च स्यात् अर्थात् केवलः अकारः अस्ति चेत् अकारादेः यत् कार्यं विहितं तदपि भवति अकारान्तस्य यत् कार्यं विहितं तदपि भवति देर् इस् अ सिङ्गल् थिङ्ग् वि कन्सिडर् इट् बोत् एस् द बिगिनिङ्ग् एण्ड् द एण्ड् आफ् इट् सेल्फ् सो अका अ इत्यस्ति चेत् सः अकारादिरपि भवति अकारान्तोपि भवति आद्यन्तवत् एकस्मिन् एक एव अस्ति चेत् आदिवदपि भवति अन्तवदपि भवति इति सूत्रार्थः परिभाषायां परिभाषासूत्रं तेन केवलस्य अकारस्यापि सुपिच इत्यनेन दीर्घो भवति आभ्याम् इति रूपम् इदभ्याम् इत्यस्ति इदः लोपे कृते अभ्याम् इति जातं सुपिच इति दीर्घे आभ्याम् अनेन आभ्यां पुनः भिस् प्रत्ययः तदादीनामः इति अत्वे अथवा गुणे इति पररूपे इद भिस् इति अयमपि हलादिः प्रत्ययः तेन हलिलोपः इति लोपः क्रियते इद् इत्यस्य लोपे अकारः शिष्यते अ भिस् इत्यस्ति पुनः अयमपि अकारान्तः इदानीमेव अधीत अकारान्तत्वात् अतो भिस ऐस् अदन्तादङ्गात् परस्य भिस् इत्यस्य ऐस् आदेशो भवति राम भिस् इत्यस्य ते ऐस् राम ऐस् वृद्धौ ऋत्वविसर्गयोः कृतयोः रामैः इति रूपम् एवमेव अभिस् इति स्थिते ऐस्त्वं प्राप्नोति किन्तु मेदमदसो रकोः न इदमदसोः अकोः इति छेदः अतोभिस ऐस् इत्यनुवर्तते अककारयोः इदमदसोः भिसः ऐस् न स्यात् सो अकच्रहितयोः अकच्रहितस्य इदं शब्दस्य अदशब्दस्य च विषये अथवा तस्मात् परस्य भिस् प्रत्ययस्य ऐस् आदेशो न भवति तेन ऐस्त्वं न भवति चेत् किं भवति अभिस् इत्यस्ति बहुवचने झलि एत् झलादौ बहुवचने सुपिपरे अदन्तस्य अङ्गस्य एत्वं भवति इत्युक्तत्वात् अकारस्य एकारे कृते एभिस् जातं ऋत्वविसर्गयोः कृतयोः एभिः अनेन आभ्याम् एभिः त्वम् इत्यन्वात् ज्ञेहस्मै पश्चात् हलिलोपः ज्ञे इदम् इत्यस्मात् चतुर्थ्येकवचने ज्ञे प्रत्ययः तिरादीनामः पररूपम् इद ए इत्यस्ति इदानीं प्रश्नः ए इति अजादिः प्रत्ययः अनात्मकः इत्यनेन अनादेशः करणीयो वा सर्वनाम्नस्मै इति स्मायादेशः करणीयो वा शुड् वि रीप्लेस् इद् वित् अन् वै अनाप्यकः सिन्स् दिस् इस् नाट् हलादि हलिलोपः विल् नाट् अप्लै शुड् वि डु अनाप्यकः आर् शुड् वि डु सर्वनाम्नस्मै इति प्रश्नः. अनाप्यकः इति सप्तमाध्यायस्य द्वितीयपादे विद्यते, सर्वनाम्नस्मै इति सप्तमाध्यायस्य प्रथमपादे विद्यते. किं करणीयम्? What would be the usual route? The usual thing would be to take paratva, right? Viprathishedhe param karyam. If we take paratva, anapyakaha would overrule smayadesha. Kintu अत्र अनादेशे कृते अकृते च स्मायादेशः प्रवर्तते. वेदर् यु रीप्लेस् इदर् वित् अन् आर् नाट् सर्वनाम्नस्मै विल् अप्लै, बिकास् इट् जस्ट् नीड्स् द वर्ड् टु बी ए सर्वनाम. अन्यत् किमपि नियमं कोऽपि नियमः नास्ति अन्यः. तेन सर्वनाम्नस्मै इति अनादेशे इफ् यु डु अनादेश फस्ट् देन् आल्सो सर्वनाम्नस्मै विल् अक्कर्. इफ् यु डु नाट् डु इनिशियलि आल्सो यु केन् अप्लै सर्वनाम्नस्मै. किन्तु स्मायादेशे अकृते अनादेशो भवति. इफ् यु हेव् नाट् डन् स्मै यु केन् डु अनाप्यकः, बट् इफ् यु डू स्मै फस्ट् आदौ सर्वनाम्नस्मै इत्यनेन स्मायादेशे कृते अनाप्यकः इति न प्रवर्तते. किमर्थं? स्मै इत्यस्य हलादित्वात् हलिलोपः इत्यनेन अनाप्यकः इत्येतत् बाध्यते. हलिलोप इस् एन् एक्सेप्शन् टु अनाप्यकः. सो इफ् यु डू स्मै फस्ट्, हलिलोपः वुड् ओवर् रूल् अनाप्यकः, विच् मीन्स् दट् इफ् यु डू स्मै यु केनाट् डू अन्. वेदर् यु डू अन् आर् नाट् स्मै विल् अप्लै, बट् इफ् यु डू स्मै फस्ट् अन् विल् नाट् अप्लै. दिस् इस् काल्ड् नित्य अनित्य. कृताकृतप्रसङ्गिशास्त्रं नित्यं. दट् विच् विल् अप्लै बिफोर् एण्ड् आफ्टर् समथिङ्ग् एल्स् केन् अप्लै इस् काल्ड् अ नित्यसूत्र. सो स्मायादेशः नित्यः, अनादेशः अनित्यः. किमर्थं स्मायादेशः नित्यः? अनादेशे कृतेपि प्रवर्तते, अनादेशे अकृतेपि प्रवर्तते. किन्तु स्मायादेशे कृते अनादेशो न भवति. तेन अनादेशः अनित्यः. नित्यत्वात् किं भवति? स्मायादेश एव भवति. परन्त्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः. सो फस्ट् यु शुड् डु स्मै, बिकास् स्मायादेश इस् नित्य. वि अप्लै स्मै. इद स्मै भवति. इदानीम् अस्य हलादित्वात् अकारस्य लोपः अस्मै इति रूपं चतुर्थीकवचने. अस्मै आभ्याम् एभ्यः सिमिलर्ली आभ्याम् हलिलोपः इति लोपः, सुपि च इति दीर्घः. एभ्यः इत्यत्र हलिलोपः इति लोपः, बहुवचने झल्येत् इति एत्वम्. अस्मै आभ्याम् एभ्यः. The same logic will be applied in Panchami Vibhakti. Okay. Lagopunji. What says that Angakarya is Antaranga? No, because Antaranga, Vahiranga can be decided on many different cases. Okay. So, there are different definitions of Antaranga, Vahiranga. One definition, as we saw yesterday, was अन्तर्भूत निमित्तकत्व एण्ड् बहिर्भूत निमित्त. इफ् देर् इस् अ डिफ़रेन्स् इन् द निमित्त, ओके, सो इन् दट् केस् यु केन् अप्लै अन्तरङ्ग बहिरङ्ग. वेर् इस् इन् दिस् केस् से वेन् वि आर् डूयिङ्ग् इद एण्ड् ए, द यु केनाट् अप्लै दट् बिकास् द निमित्त फार् इद इस् ए. सो ऐ मीन् द निमित्त फार् अनादेश इस् द प्रत्यय विच् इस् विभक्तौ परतः. And the nimitta for smayadesha is the prakriti. So prakriti and pratyaya have each other as nimitta. So that definition of antaranga and bahiranga will not hold. There is also one more definition which says alpapeksha and bahapeksha. If one karya has many nimittas and if the other has a simple or only a single nimitta, and that karya would be antaranga. If you apply that, actually smaya desha would be antaranga because it requires nothing but sarvanama. It requires just sarvanama samya and nye, smaya would apply. For anapyakaha, you need the idam shabda and you need an api vibhakti and it has to be akakara. So anapyakaha happens to be bahiranga even if you take that. So tadapi smaya deshasyeva pravrutihi bhavet. But yeah, when you can manage this with nitya anitya, you don't need to go as far as antaranga bahiranga. So the result would anyway be the same. Okay. Asmat abhyam ebhya panchami vibhakta vapi saeva idam smat ida kim gasi pratyah asti as pratyah tatra smadadesha karaniyova athava anadesha karaniyova iti prashne punaha smadadesha nityah tena adau tasmin krute halilopaha ityanena idaha lope asmat abhyam ebhya tirupam एवमेव षष्ठी एकवचनेपि इदं तस्मात् ङस् प्रत्ययः तदानीनामः इति अर्थम् अतो गुणे इति पररूपं सो इद अस् इत्यस्ति टाङ्गसिंहस्वामिनाथ्याः इत्यनेन स्यादेशः अदन्तानङ्गात् टादीनाम् इनादयः आदेशः स्युः पुनः अत्रापि स्यादेशः नित्यः अनादेशः नित्यः एव्रिवेर् द सेम् लाजिक् अप्लैस् सो दट् यु डू द आदेश फस्ट् एण्ड् देन् आदेशस्य हलादित्वे हलिलोपः इति लोपे कृते अस्य इति भवति. अस्य अनेन अस्मादाभ्याम् एभ्यः अस्य ओस् प्रत्ययः अत्वं पररूपम् इद ओस् इत्यस्ति. इदानीम् ओस् प्रत्ययस्य कोऽपि आदेशः नास्ति. ओस् डस् नाट् हाव् एनि आदेश. So anapyakaha iti atra pravartate. So we had anapyakaha in anena. After it, all vibhaktis, either by themselves or because of adeshas, were haladis. Now again, os is an ajadi vibhakti. Anapyakaha ityanena anadeshe. Ana os. Idanim osicha iti etvam. Osipare adantasyangasya etvam bhavati. Itve ane os. एचोयवायावः इति अयादेशे ऋत्वविसर्गयोश्च कृतयोः अनयोः अस्य अनयोः आम् षष्ठी बहुवचने आम् प्रत्ययः अत्वं पररूपं भवति. इद आम् इत्यस्ति. इदानीं किं करणीयम्? किं कार्यं प्रवर्तते? सत्यम् आमि सर्वनाम्नः सुट् इत्यनेन सुडागमः क्रियते. सर्वनामसंज्ञा अस्ति, तस्मात् सर्वनाम्नः परस्य आमः सुट् इत्यागमो भवति. इद स आम् इदानीं साम् इति हलादिः. हलादित्वात् लोपः. इदः लोपे अ साम् इत्यस्ति. पुनः बहुवचने झलि एत्वम् अकारस्य एकारे कृते ए साम् आदेशप्रत्ययोः इत्यनेन षत्वे एषाम् अस्य अनयोः एषाम् अस्मिन् अनयोः एषु. पुनः अस्मिन् ङि इत्यस्य नसिंयोः स्मात्स्मिनो इत्यनेन अस्मिन् आदेशः हलिलोपः. अस्मिन् अनयोः एषु असु इत्यस्ति, हलिलोपः इति लोपे कृते. एवमेव बहुवचने झल्येत् आदेशप्रत्ययोः इत्यनेन एत्वे षत्वे च कृते एषु इति रूपम्. इदं शब्दस्य रूपाणि, ऐ होप् एव्रिबडी नोस् द रूपास् बै प्रयोग, बिकास् दिस् इस् वन् आफ् द केसस् वेर् रूप इट् सेल्फ् इस् अ बिट् कन्फ्यूसिङ्ग् अट् लीस्ट् इन् द इनिशियल् स्टेजस्. सो इदानीं किं भवति अत्र, सु प्रत्ययं विहाय अर्थात् प्रथमाविभक्तौ एकवचनं विहाय सर्वासु विभक्तिषु चरारीनामः इति अत्वं पररूपं च भवति. सो एव्रिवेर् एल्स् यु हाव् चरारीनामः एण्ड् अतो गुणे. सुप्रत्यये इदमो मह इत्यनेन मकारस्य स्थाने मकारादेशः चरार्यत्वं निवारयितुं, ततः इदोय् पुंसि इत्यनेन इद् इत्यस्य स्थाने अय् इत्यादेशः अयम् इति जातं सुलोपे कृते. औङादिषु औ जस् अम् औषस् इन् आल् दीस् दश्च इत्यनेन दकारस्य स्थाने मकारादेशो भवति. सो यु हाव् इदौ विच् बिकम्स् इमौ, यु हाव् इद इ, इदे बिकम्स् इमे. सो एव्रिवेर् दकार इस् रिप्लेस्ड् बै मकार. वन्स् यु डू अत्वान् पररूप इट् बिकम्स् लैक् सर्वौ सर्वे, इदौ इदे इत्यादिवत् भवति. दकारस्य स्थाने मकारे इमौ इमे, इमम् इमौ इमान्. आपि विभक्तौ, सो स्टार्टिङ्ग् फ्रम् टा टिल् सुप्, अजादिषु अनाप्यकः इति अनादेशः. इफ् द प्रत्यय हेपन्स् टु बि अजादि, देन् इट् विल् बि द इद् पार्ट् आफ् इट् इस् रिप्लेस्ड् बै अन्. सो यु हेव् अनेन अण्ड् अनयोः, इवन् दो इट् अनाप्यकः इस् अ जनरल् सूत्र, इट् जस्ट् सेस् आपि विभक्तौ, एनी विभक्ति फालोड् बै आप्, बट् इन् आल् हलादिविभक्तीस् इट् इस् ओवर् रूल्ड् बै हलिलोपः. सो फैनलि इट् इस् रिस्ट्रिक्टेड् टु टु प्रत्ययस् ओन्लि, वन् इस् टा अण्ड् अदर् इस् ओस्. अनेन अनयोः इति द्वयोरेव भवति. ओके, दश्च दर् इस् अ टैपिङ्ग् एरर्, अङ्गादिषु दश्च दिस् वाय्स् च, ओके इट्स् मै मिस्टेक्. सो अजादिषु प्रत्ययेषु अनादेशः, हलादिषु प्रत्ययेषु तु हलिलोपः इत्यनेन लोपः. सो आभ्याम् एभिः अस्मै अस्मात् अस्य अस्मिन् एषु, सो सर्वत्र हलिलोपः इत्यनेन लोपो भवति. सो दट् इस् आल् विच् हेपन्स् एक्चुलि इन् इदं शब्द. देर् इस् सम् विचार इन् बिट्वीन् आन् वेदर् दिस् शुड् अप्लै आर् दट्, विच् इस् रिसाल्ड् इन् अदर् वेस्. रैट्, एनी क्वश्चन्स्? Okay, there is more to idam shabda. What happens when there is akach? Because there are sutras which say akakarasya, and it is, does not have kakara, that is when there is no akach, say anapyakaha and halilopaha. So what happens when there is akach? And there is also a concept called anvadesha, which we will see tomorrow, not tomorrow, next week, I guess. I'm sorry that I could not prepare for this class, I could not prepare slides. So I'll stop here. Next week, next Monday there is no class. I would be traveling on Monday morning, so I will not be able to take class. Next Tuesday, which is 16th of August, we'll have the next class. Before we stop today, there was one more question which was asked by Ravichandran ji about samprasarana. Which, anyway, we, since we have time, let's go through it a bit. Actually, the question which he found in some commentary is about samprasaranam, igyana samprasaranam, ityatra bhashya vicharaha bhavati. Igyana samprasaranam iti uchyate, samprasaranam iti samya vidhiyate, kasya samya bhavati iti prashna. Arthat, यणः स्थाने इक् यः भवति आदेशः, तस्य आदेशस्य अर्थात् दट् प्रोसेस् आफ् रिप्लेसिङ्ग् यण् बै इक् ईस् दट् काल्ड् सम्प्रसारणम्, आर् इस् द लेटर् द इक् विच् हेज़् रिप्लेस्ड् यण् ईस् दट् लेटर् काल्ड् सम्प्रसारण. कस्य संज्ञा इति प्रश्नः. इस् द प्रोसेस् आफ़् रिप्लेसिङ्ग् अ यण् लेटर् वित् अन् इक् लेटर् इस् दट् प्रोसेस् काल्ड् सम्प्रसारण, आर् इस् दट् लेटर् विच् हेज़् रिप्लेस्ड् यण् ईस् दट् काल्ड् सम्प्रसारण. इट्स् अ क्वश्चन्. इफ् यु सी सूत्रास् आफ़् पाणिनि, दर् आर् say he says shanga samprasaranam, shang will get samprasarana. So what does it mean? It means you will replace the yan of shang by ik, where the sutra itself means that the process is called samprasarana. That is how we have to define it. Shanga samprasaranam ityukte shangaha ikah sthane yanah sthane ik bhavati ityarthah. Tasya vakyasya samprasaranam यणः स्थाने इक् भवति इति वाक्यस्य सम्प्रसारणसंज्ञा इति ज्ञायते. सो देर् आर् सर्टन् सूत्रास्, मेनि सूत्रास् वेर् देर् इस् अ विधि सूत्रास्, आल् सूत्रास् विच् मेण्डेट् सम्प्रसारण, वेदर् इट् इस् वाह ऊट् आर् एनिथिङ्ग्, इन् आल् सच् केसस् तस्य वाक्यस्य यणः स्थाने इक् भवति इति वाक्यस्य सम्प्रसारणसंज्ञा इति भाति. किन्तु सम्प्रसारणाच्च इत्यस्ति, सम्प्रसारणात् पर अचिपरे पूर्वरूपं भवति. तत्र कः अर्थः? सम्प्रसारणरूपेण यः इक् कृतः यणः स्थाने यः इग् भवति तस्मात् परस्य तस्मादचिपरे पूर्वरूपं भवति. सो इन् दट् केसस् वेनेवर् इट्स् एन् अनुवादसूत्र इस् वाट् इट् इस् काल्ड्. विधिसूत्र इस् वेर् सम्प्रसारण इस् बीङ्ग् मेण्डेटेड्, अनुवाद इस् वेर् वन्स् सम्प्रसारण इस् डन् इट् इस् बीङ्ग् यूस्ड् फार् समथिङ्ग् इस्. फार् एक्साम्पल् हि सेस् वेन् सम्प्रसारण इस् फालोड् बै एन् अच् देर् इस् पूर्वरूप, विच् मीन्स् इन् दिस् सूत्र samprasarana is referring to a letter. The ik which has replaced yan is being called samprasarana. So there is prayoga is seen in both senses. Even for the process is being called samprasarana, and the letter itself is being called samprasarana. Which of these is actually correct? Should we call the process as samprasarana or should we call the letter as samprasarana? Iti prashna. Vakyasya samnya bhavati va? तस्य वर्णस्य संज्ञा भवति वा इति प्रश्नः. सो अ लाट् आफ़् विचार हेज़् गान् इन् द भाष्य इन् दिस्. इट्स् इस् वेरि इण्ट्रेस्टिङ्ग्. ऐ मीन् दिस् इस् वन् आफ़् द ईसियस् सूत्रस् आफ़् द भाष्य इन् दट् यु केन् अण्डर्स्टाण्ड् द फ्लो आफ् थाट्. भाष्यकारेण अनेके समाधानानि उक्तानि, अनेकानि. सो हि सेस् हि गिव्स् मोर् देन् वन् सल्यूशन्. हि सेस् you can take it either way, whether you take it as vakyasya samnya iti kriyate athava varnasya samnya iti kriyate, ubhayatha api nirvaham kartum shakyate iti vadati. So it says the first case, vakyasya, if the process is being called samprasarana, tada kim bhavati samprasarana accha ityadishu katham nirvahah iti prashnah. If you say that igyana samprasaranam gives samprasarana samnya for the process of replacing yan with an ik, then how will you interpret samprasaranaccha or na samprasarane samprasaranam sutras where samprasarana refers to a letter? So he says kakat jatah kakah shena jatah shenah is an example he gives. Something which is born from a crow is called a crow, and something which is born from a shena, an eagle, is called an eagle. So something which is born of samprasarana, of a process called samprasarana, will itself be called samprasarana. It's one example, it's one solution that the Bhashyakara gives. So the sutra actually gives the samprasarana samnya to the vakya, the process of replacement. But the letter would also be called a called samprasarana, because it is the resultant of samprasarana. So it itself can be called a samprasarana. So that is one example which he gives, one solution he gives to say that the vakya is called samprasarana. He says, don't mind, you can also call the varna itself as samprasarana. Varnasya samprasarana samya bhavati chet shanga samprasaranam ityatra katham nirvahaha, because the samprasarana is not there. When you are saying say vahaha samprasaranam bhavati, what is that? The samprasarana is the letter ik, and the letter is still not there. How are you calling, or what do you, how do you interpret the sutra? So he says bhavini iyam samya bhavati. So that process by which a samprasarana would result would also be called samprasarana. So for this, an example which he gives is asya sutrasya shatakam vaya. Okay. So somebody is going to a weaver, he is giving some thread, sutram, and he says, make a sari out of it. Okay. So he says, yadi shatakam navatavyam, yadi vatavyam na shatakam. If it is yet to be woven, it is not a sari. He is saying shatakam vaya, saying weave a sari. Okay. If it is to be woven, it cannot be called a sari. Right? It cannot be called a shataka till the weaving process is complete. But then, if the weaving process is not, if it is called a shataka, then it need not be woven. It means it is complete. So, anyonyashraya doshaha is what he says. Yadi shatakam navatavyam, yadi vatavyam na shatakam. If it has to be woven, you cannot call it a shataka. If you are calling it a shataka, it need not be woven. So, why are you saying asya sutrasya shatakam vaya? So, he says, in that case, bhavini samya, yatha shatakam bhavati, tatha vaya. Weave it in such a way that it will be called a shataka. So, similarly, atra api, carry out a process in such a way that a samprasarana would result. A samprasarana is an ik which has replaced a yand, which means carry out the process of replacing that yand with ik. Is how you can explain. So either way, whether you call the vakya as a samprasarana or the varna itself as a samprasarana, in both cases you can give a proper interpretation for both kinds of sutras. Is what the Bhashyakara says. There is some question about the samprasarana, which is an interesting sutra in the Bhashya. Okay. Ravichandranji, any questions? Or anybody else, of course. Okay. So we'll stop here today. Next class, next Tuesday. Huh? Yes, yes. Yeah, yeah, tell me. Hello? Huh, tell me. That's the question. Just for theoretically, you can say it is sam and pra are the upasargas, and sr is the dhatu. Sr dhatu gets nich where it becomes sari. Then you have ana, which is lyut pratyaya. So it becomes saranam, sampra saranam. So you can derive the word, but there would be a question, a natural question, is it an anvartha samya? Because I mean, there are many cases where the Bhashyakara argues where the samya, where a name is not a small one. Whereas where Panini gives an arbitrary samya, he always says ti, ghu, bha, etc. Whereas if it happens to be a bigger samya, like say karakam, pratipadikam, etc., all those carry their own meaning. Okay. So that way, does samprasarana have any meaning is a question which would naturally arise. I mean, is it an anvartha samya, or what does the word samprasarana itself mean? Why is an ik being replacing and called samprasarana? Are natural questions, but unfortunately the Bhashyakara does not deal with it. In the Samprasarana Samya Sutra, he does not ask why the Samya Samprasaranam or what does the Samya mean. So it is sort of an enigma. Why, if it's just an arbitrary thing for replacing yand with ik, why would Panini choose such a big word? Samprasaranam is, Samya always is meant to shorten things. So Bhashyakara himself says many times in the Bhashya, Laghvartham hi Samyakaranam. And any Samya is meant to be Laghu. So why such a big samya, what is the purpose or what is the meaning of the word samprasarana itself? I do not know. I mean, in the samprasarana samya sutra of Bhashya, he does not deal with it. I do not know if there is any other place where such question has been dealt with, and I also do not know the answer. But I mean, it's one of the things which puzzles me, because having such a big samya and not knowing what that means, well, it is sort of rare in Vyakarana. Well, so if any of you finds out sometime, please do. Oh yes. Certainly. There are many cases where two upasarga are there. Say pratyagachati. Prati agachati. So I mean, there are many, many cases where any number of upasargas. There is no limit on the number of upasargas which can be used with adhatu. Multiple upasargas can be used.
ಮುನಿತ್ರಸ್ಕೃತ್ಯ ತದುಪೀಕರಿಭಾಗ್ಯಚ ವೈಯಾಕರಣಸಿದ್ಧಾಂತಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ.